चाराचन्द्रभ्रान्तिं स्फुरतमलाकान्तिं गजगतिं हरिप्रेम मातं धृतपरमासत्त्वं स्मितमुखं सदगुणं नेत्रं करकलिताभेत्रं कलिभिदं भज नित्यानन्दं भज रतरूपां निरभादिं रसनामकारं जनगना सर्वस्वमतुलं तदीयैक प्राण प्रतिमा वसुधा जानावपतिं सदप्रेम मादां परमवितीतं मन्दमनसं भज नित्यानन्दं भज रतरूपां निरभादिं शचीसूनु प्रेष्ठं निखिल जगारिस्तं सुखमायां कालो मजीव धरण करण धामा करुण हरि रख्य नाथ भव जलधि गावो नतिहार भज नित्यानन्दं भज नतरूकान्दं निरभादि प्रतटनीनां कलिकालुषीनां किन्नु भविता तथा प्रजश्चितं रचयायरानाय शक्तैमे रचन्ति त्वमीथां सह भगवत मन्त्रयतीय भज नित्यानन्दं भज नतरूकान्दं निरभादि यथेष्टं रे प्रातः संसारं बुधितरनादाय मयि लागे इदं बहुस्फुटैरततिरतायं यत् प्रतिगृह भज नित्यानन्दं भज नतरूकान्दं निरभादि बालसंसारं भो निधिहरणकुम्भोद्भवम् आह सतं श्रेयसिन्धु बन्धुं समुदितं कालशेन स्फुर्यातिमिरहर सूर्यप्रभमहं भज नित्यानन्दं भज नतरूकान्दं निरभादि नतं गङ्गाजन्तं हरिनानुवादम् पतिपाति प्रजन्तं प्रशन्तं स्वमपि मदायन्तं जनगणं प्रकुर्वन्तं सन्तं सकरुणदृगन्तं प्रकलनं भज नित्यानन्दं भज नतरूकान्दं निरभादि सुविप्राणं भ्रातु भरसरसिरं कोमलतरम् वक्त्रलोको चालित परमानन्द हृदयं रामन्तर्मधुर्यैरहमदयं तम्बुरजानन् भज नित्यानन्दं भज नतरूकान्दं निरभादि रसनमधारं रसिकवरसद् वैष्णवधनम् रसगरसरं पतिततिदारं स्मरणत परं नित्यानन्दस्तकमिदम् अपूर्वं वदति यस्तदमृतमब्जं स्फुरतुलितारं तस्य हृदय भज नित्यानन्दं भज नतरूकान्दं निरभादि भज नित्यानन्दं भज नतरूकान्दं निरभादि।